सर्वेभ्यो नमः, सर्वेषां स्वागतम्। इदानीं संस्कृतवर्गः आरभ्यते। अस्तु, गतवर्गे वयं कवतु प्रत्ययस्य विषये अभ्यासः कृतवन्तः। वयं पुल्लिङ्गशब्दस्य विषये अधिकम् अभ्यासं कृतवन्तः। सर्वे स्मरन्ति वा वयं किं कृतवन्तः गतवर्गे? सर्वे स्मरन्ति वा? कोऽपि वदतु, राधिका भगिनी वा अथवा वंशिका वा वदति वा, गतवर्गे वयं किं कृतवतः? तवतु प्रत्ययस्य पुल्लिङ्गविषये वयं पठितवन्तः, आं वा? स्मरन्ति वा सर्वे?
प्रत्ययः कथा पठितवन्तः, पठितवन्तः।
आम् आम्, प्रमुखविषयः आसीत् तवतु प्रत्ययस्य पुल्लिङ्गविषय, पुल्लिङ्गशब्दस्य विषये वयम् अधिकम् अभ्यासः कृतवन्तः, किल? किल स्मरन्ति वा सर्वे? अस्तु, प्रश्नः अस्ति चेत् पृच्छन्तु। इदानीम् अग्रे गच्छामः। किञ्चित् स्त्रीलिङ्गरूपं कथं भवति, तवतु प्रत्ययस्य स्त्रीलिङ्गरूपं कथं भवति इति किञ्चित् अभ्यासं कृत्वा अग्रे गच्छामः। अस्तु अस्तु, इदानीं सविता भगिनी,
आं भगिनि,
भवती नदीशब्द, नदीशब्दस्य विभक्तिरूपाणि वदति वा?
आं भगिनि,
सावधानेन वदतु,
ओके। प्रथमा विभक्ति नदी, नद्यौ, नद्यः। द्वितीया विभक्ति नदी,
प्रथमा द्वितीया तृतीया इति न वक्तव्यम्। अस्तु, केवलं नदी, नद्यौ, नद्यः, नदीं, नद्यौ, नदीः, तादृशमेव वदतु।
आं भगिनि, आं भगिनि, नदी, नद्यौ, नद्यः, नदीं, नद्यौ, नदीः, नद्या, नद्या, नदीभ्यां, नदीभिः। सो नद्यै, नदीभ्यां, नदीभ्यः, नद्याः, नद्याः, नदीभ्यां, नदीभ्यः, नद्याः, नद्योः, नदीनां। सो नद्यां, नद्योः, नदीषु,
नदीषु,
नदीषु।
अस्तु अस्तु, समीचीनं समीचीनं, धन्यवादः,
धन्यवादः।
क्लीमेण्ट् माधवी भगिनी,
आं भगिनि,
भवती अपि तदेव पुनः एकवारं वदति वा?
आं भगिनि, नदी, नद्यौ, नद्यः, नदीं, नद्यौ, नदीः, नद्या, नदीभ्यां, नदीभिः, नद्यै, नदीभ्यां, नदीभ्यः, नद्याः, नदीभ्यां, नदीभ्यः, नद्याः, नद्योः, नदीनां, नद्यां, नद्योः, नदीषु, नद्ये, नदी, हे नदी, नदी, हे नद्यौ, हे नद्यः।
सत्यं, समीचीनं समीचीनं, धन्यवादः,
धन्यवादः।
अनन्तरम् इदानीं पद्मिनी भगिनी, तादृशमेव भवति, भवती शब्दः, अस्तु,
आं भगिनि,
सावधानेन चिन्तयित्वा वदतु, सावधानेन, अस्तु,
भवती, भवत्यौ, भवत्यः, भवती, सोरि,
चिन्ता मास्तु, चिन्ता मास्तु,
भवतीः, भवत्या, भवतीभ्यां, भवतीभिः, भवत्यै, भवतीभ्यां, भवतीभ्यः, भवत्याः, भवतीभ्यां, भवतीभ्यः, भवत्याः, भवत्योः, भवतीनां, भवत्यां, भवत्योः, भवतीषु।
सुन्दरं सुन्दरं, किञ्चित् टिप्पणीं स्वीकुर्मः, टिप्पणीं कुत्र कुत्र, तीभ्यां, तीभ्यां, भवतीभ्यां, 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 कुत्र आगच्छति?
एकवचने, द्विवचने, द्वितीया विभक्तिः, चतुर्थी विभक्तिः, पञ्चमी विभक्तिः अपि आगच्छति।
आं सत्यं, बहु समीचीनम्। अनन्तरं नदीभिः, भवतीभिः इति कुत्र आगच्छति?
तृतीया विभक्ति बहुवचनरूपम्,
सत्यं बहु समीचीनम्. अनन्तरं भवत्यां का विभक्तिः?
भवत्यां सप्तमी रूपम्.
अस्तु, समीचीनम्. अनन्तरं किञ्चित् भेदः अस्ति एकस्मिन् स्थाने भेदः अस्ति. कुत्र इत्युक्ते एतत् शब्दः तस्य प्रातिपदिकं भवती इति प्रातिपदिकम् अस्तु, भवती इति प्रातिपदिकम् अस्तु. प्रथमाविभक्तिः भवती एव अस्ति. भवत् शब्दस्य पुल्लिङ्गरूपं सप्तमी विभक्ति विभक्तौ कथं भवति?
भवति
सावधानम् अत्र आवश्यकम् अस्ति. पुल्लिङ्गरूपं कथं भवति इत्युक्ते सप्तमी रूपं पुल्लिङ्ग कथं भवति इत्युक्ते भवति इकारः ह्रस्व इकारः सत्यं सत्यम्. अत्र स्त्रीलिङ्गरूपं कथम् अस्ति?
भवति
दीर्घ इकारः. सत्यं, बहु समीचीनम्. अनन्तरं भवत्याः भवत्याः इति शब्दः आगच्छति चेत् का विभक्तिः?
पञ्चमी विभक्ति षष्ठी विभक्ति अपि भवत्याः एकवचनरूपं
भवितुम् अर्हति. पुनः वदतु कुत्र कुत्र भवत्याः इति शब्दम् आगन्तुं शक्नोति?
पञ्चमी विभक्ति षष्ठी विभक्ति एकवचन रूपं भवितुम् अर्हति.
सत्यं, बहु समीचीनम्. अनन्तरं भवतीः इति अस्ति चेत् का विभक्तिः?
द्वितीया विभक्तिः बहुवचनरूपं.
सत्यं सत्यं सत्यं. पुल्लिङ्गरूपं भवत् शब्दस्य सप्तमी विभक्ति बहुवचनं कथं भवति?
भवत्सु भवति.
भवत्सु. परन्तु स्त्रीलिङ्गरूपं कथं भवति?
भवतीषु.
बहु समीचीनम्, बहु समीचीनम्. सर्वे श्रुतवन्तः किल भेदः कथं भवति पुल्लिङ्गरूपम् अस्ति चेत् कथं भवति स्त्रीलिङ्गरूपम् अस्ति कथं भवति इति इदानीं पद्मिनी भगिनी उक्तवती. एतत् सर्वं प्रमुखविषयः अस्ति, सर्वे स्मरन्तु. एतद् नदीशब्दं वयं स्मरामः चेत् भवती शब्दः सुलभः अस्ति, सुलभः भवति. अस्तु, भवती शब्दः सुलभः अस्ति चेत् अथवा नदी शब्दः सुलभः अस्ति चेत् कः शब्दः सुलभः भवति?
भवती शब्दः.
नदी शब्दः भवती शब्दः सम्यक् ज्ञास्यामः चेत् कः शब्दः सुलभः भवति? तवतु प्रत्ययस्य स्त्रीलिङ्गरूपं सुलभः भविष्यति. तवतु प्रत्ययस्य स्त्रीलिङ्गरूपं सुलभः भविष्यति. अस्तु, जान अवगच्छति वा अहं किं वक्तुम् इच्छामि इति?
आं भगिनि.
उदाहरणार्थं पिबति इति सत्यं सत्यं. भवत्याः ध्वनिः किञ्चित् मन्दम् अस्ति. मम ध्वनिः सम्यक् अस्ति वा?
आं भगिनि.
अस्तु अस्तु, समीचीनमेव भगिनि, चिन्ता मास्तु. उदाहरणार्थं भवती वदतु, पिबति इति शब्दं स्वीकुर्मः, लट्लकारूपम् अस्ति पिबति, तस्य तवतु प्रत्यय स्त्रीलिङ्गरूपं वदति वा?
विभक्ति प्रथमाविभक्ति द्वितीया
सत्यम्. सर्वं सर्वं
पिबति पिबत्यौ पिबत्यः
न भगिनि, अत्र पिबति लट्लकाररूपम् अस्ति. भवतु प्रत्ययः इत्युक्ते पीतवती पीतवत्यौ
पीतवत्यः पीतवतीः पीतवत्या पीतवतीभ्यां पीतवतीभिः पीतवत्यै पीतवतीभ्यां पीतवतीभ्यः पीतवत्याः पीतवतीभ्यां पीतवतीभ्यः पीतवत्याः पीतवत्योः पीतवतीनां पीतवत्यां पीतवत्योः पीतवतीषु.
सुन्दरं सुन्दरं, धन्यवादः भगिनि. स्पष्टमस्ति वा?
स्पष्टमस्ति.
समीचीनम्. इदानीं राधिका भगिनि.
आं भगिनि.
भवती नदीशब्दं नदीशब्दं नदीशब्दस्य विभक्तिः वदति वा?
नदी, नद्यौ, नद्यः. ईकारान्ते स्त्रीलिङ्गशब्दः. नदी, नद्यौ, नद्यः. नदीं, नद्यौ, नदीः. नद्या, नदीभ्यां, नदीभिः. नद्यै, नदीभ्यां, नदीभ्यः. नद्याः, नदीभ्यां, नदीभ्यः. नद्याः, नद्योः, नदीनां. नद्यां, नद्यौ, नदीषु.
एकनिमिषः. नद्यां सप्तमी. नद्यां पुनः वदतु, सप्तमी विभक्तिः एकवारं वदतु.
नद्यां, नद्यौ, नद्योः,
नद्योः. सत्यं, नद्योः, नद्यौ न, नद्योः.
नद्योः, नदीषु.
सुन्दरं सुन्दरम् अस्तु. इदानीं करोति इति शब्दस्य विभक्तिः वदतु. न क्षम्यतां, करोति इति लट्लकारूपम् अस्ति, तस्य तवतु प्रत्यय स्त्रीलिङ्गरूपस्य विभक्तिः वदतु.
कृतवती, कृतवत्यौ, कृतवत्यः. कृतवती, कृतवत्यौ, कृतवतीः. कृतवत्या, कृतवतीभ्यां, कृतवतीभिः.
सावधानेन वदतु, त्वरया न मास्तु, सावधानेन चिन्तयित्वा वदतु, चिन्ता मास्तु. सम्यक्तया वदति.
कृतवत्या, कृतवतीभ्यां, कृतवतीभिः.
कृतवतीभिः,
कृतवतीभिः. कृतवत्यै, कृतवतीभ्यां, कृतवतीभ्यः. कृतवत्याः, कृतवतीभ्यां, कृतवतीभ्यः. कृतवत्याः, कृतवत्योः, कृतवतीनां. कृतवत्यां, कृतवत्यौ,
कृतवत्योः,
कृतवत्योः, कृतवतीषु.
सुन्दरं सुन्दरं, बहु सुन्दरम् अस्ति. स्पष्टमस्ति किल भगिनि?
आं भगिनि.
समीचीनं, धन्यवादः. अनन्तरं
धन्यवादः.
माधवी भगिनी, सिङ्गपूर् माधवी भगिनी.
आं भगिनि.
भवती प्रयत्नं करोति वा?
आं भगिनि.
भवती शब्दं वदतु.
आं भगिनि. भवती, भवत्यौ, भवत्यः. भवतीं, भवत्योः.
एकनिमिषः, अत्र सावधानम् आवश्यकं.
भवतीं, भवत्यौ, भवतीः. भवत्या, भवतीभ्यां, भवतीभिः. भवत्यै, भवतीभ्यां, भवतीभ्यः. भवत्याः, भवतीभ्यां, भवतीभ्यः. भवत्याः, भवत्योः, भवतीनां. भवत्यां, भवत्योः, भवतीषु. हे भवति, हे भवत्यौ, हे भवत्यः.
सत्यं, समीचीनम्. इदानीं भवती वदतु. वदति इति लट्लकारूपम् अस्ति. तस्य कवतु प्रत्ययः प्रत्ययरूपं कथं भवति चेत् उदितव पुल्लिङ्गरूपम् अस्ति. तवतु प्रत्यय पुल्लिङ्गरूपम् अस्ति चेत् उक्तवान्, उक्तवन्तौ, उक्तवन्तः इति पुल्लिङ्गरूपम् अस्ति. अस्तु, परन्तु स्त्रीलिङ्गरूपं कथम् अस्ति चेत् उदितवती, उदितवती, उदितवत्यौ, उदितवत्यः इति अस्ति. प्रयत्नं करोति वा?
आं भगिनि, अहं प्रयत्नं करोमि. उदितवती, उदितवत्यौ, उदितवत्यः. उदितवतीं, उदितवतीम् उदितवत्यौ उदितवतीः उदितवत्या उदितवतीभ्याम् उदितवतीभिः उदितवत्यै उदितवतीभ्याम् उदितवतीभ्यः उदितवत्याः उदितवतीभ्याम् उदितवतीभ्यः उदितवत्याः उदितवत्योः उदितवतीनाम् उदितवत्याम् उदितवत्योः उदितवतीषु.
सुन्दरमस्ति, सुन्दरम्.
आम् आं भगिनि, धन्यवादः.
धन्यवादः भगिनि, धन्यवादः. अनन्तरं
भगिनि लट्लकाररूपं किम् उदितवती?
वदति, वदति.
ओ वदति.
शोभना भगिनी भवती एव वदतु. अनन्तरं पश्यति इति लट्लकाररूपम् अस्ति. तस्य तव तु प्रत्ययरूपं कथं भवति चेत् दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः इति भवति. अवगच्छति वा? तद्रूपं रूप व्यक्तिरूपाणि वदति वा?
दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः. दृष्टवतीं, दृष्टवत्यौ, दृष्टवतीः. दृष्टवत्या, दृष्टवत्या, दृष्टवतीभ्यां, दृष्टवतीभिः. दृष्टवत्यै, दृष्टवतीभ्यां, दृष्टवतीभ्यः. दृष्टवत्याः, दृष्टवतीभ्यां, दृष्टवतीभ्यः. दृष्टवत्याः, दृष्टवत्योः, दृष्टवतीनां. दृष्टवत्यां, दृष्टवत्योः, दृष्टवतीषु.
बहु सुन्दरं, सुन्दरं. स्पष्टमस्ति किल भगिनि?
स्पष्टं.
समीचीनं, धन्यवादः भगिनि. अनन्तरं वंशिका अस्ति वा? वंशिका.
आं महोदय.
अस्ति किल? भवती वदति वा हसति इति लट्लकाररूपम् अस्ति. तव तु प्रत्ययरूपं कथं भवति? हसितवती, हसितवत्यौ, हसितवत्यः इति आगच्छति. अस्तु, वदति वा तस्य रूपाणि?
हसति, हसितवत्यौ, हसितवत्यः, हसितं, हसित्योः,
हसितवतीं,
हसितवतीं, हसितवत्योः, हसितवतीः.
भगिनी वंशिका, भगिनी अत्र सावधानं ददातु कृपया. द्वितीयविभक्तौ द्वितीयविभक्तौ कथं भवति इति किञ्चित् सावधानं दत्वा वदति वा? हसितवतीं,
हसितवतीं, हसितवत्योः, हसितवतीः.
न अत्र दोषः अस्ति. द्विवचने अस्तु प्रथमविभक्तौ द्वितीयविभक्तौ समानमेव अस्ति.
आम्
अस्तु. भवत्यौ, भवत्यौ, हसितवत्यौ, हसितवत्यौ एव भवति. भ्रमः मास्तु. पुनः आरम्भं कृत्वा सुलभः भविष्यति.
आम् हसितवती, हसितवत्यौ, हसितवत्यः, हसितवतीं, हसितवत्यौ, हसितवतीः,
हसितवतीः,
हसितवतीः, हसितवत्या, हसितवत्भ्यां,
हसितवत्. अत्र वंशिका, अत्र कुत्र सावधानम् आवश्यकम् अस्ति चेत् अत्र स्त्रीलिङ्गरूपम् अस्ति चेत् दीर्घ ईकारः सर्वदा भविष्यति. दीर्घ ईकारः सर्वदा भविष्यति. अस्तु, अतः भवतीभ्यां, भवतीभिः, भवतीभ्यां, भवतीभ्यः भवत्याः ध्वनिः सम्यक् नास्ति, सम्यक्तया एकस्मिन् स्थाने एकस्मिन् स्थले दूरवाणीं स्थापयित्वा सम्यक्तया वदति वा, किमर्थं चेत् सम्यक् ध्वनिः सम्यक् नास्ति, भङ्गं भवति.
आम् अहं प्रारम्भेन वदति.
प्रयत्नं करोतु.
हसितवती, हसितवत्योः, हसितवत्यः, हसितवती.
एकनिमिषः, अत्र हसितवत्योः इति कदा भवति, कुत्र भवति? हसितवत्योः, योः ओकारः अस्ति चेत्, पदस्य अन्ते ओकारः अस्ति चेत् कुत्र भविष्यति? षष्टिविभक्तौ
द्विवचनौ
द्विवचने, षष्टि सप्तमी द्विवचने एव ओकारः भवति. अस्तु.
आम् अस्तु.
अस्तु, अत्र प्रथमा द्वितीया विभक्तौ अन्तिमवर्णः कथं भवति? भवति, भवत्यौ औकारः भविष्यति.
आम्
अतः किञ्चित् सावधानेन वदतु, त्वरया मा वदतु, सावधानेन चिन्तयित्वा वदतु, वदतु.
आम् आम्, हसति, हसितवत्यौ, हसितवत्यः, हसितवतीं, हसितवत्यौ, हसितवतीः, हसितवत्याः, हसितवतीभ्याम्. ओके. आम्, हसितवत्या, हसितवतीभ्यां, हसितवतीभिः, हसितवत्ये, हसितवतीभ्यां, हसितवतीभ्यः, हसत्.
चतुर्थी विभक्तौ एकवचने कथं भवति?
आम्,
चतुर्थी एकवचने कथं भवति? आम् आम् वदतु. शृणोमि 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 वंशिका.
हसितवत्यै, हसितवत्यै.
सत्यं सत्यं. अनन्तरं
हसितवत्यै.
पूर्वम् अन्यरूपम् उक्तवती, अतः अहं पृष्टवती. हसितवत्यै अनन्तरं
हसितवतीभ्यां, हसितवतीभिः, हसितवतीभ्यः, हसितवत्याः, हसितवतीभ्यां, हसितवतीभ्यः, हसितवत्याः, हसितवत्योः, हसितवतीनां, हसितवत्यां, हसितवत्योः, हसितवतीषु.
सुन्दरं सुन्दरं, स्पष्टं स्पष्टमस्ति. भवती भवत्याः मनसि स्पष्टमस्ति वा?
आम्
आम्. समीचीनं समीचीनं, धन्यवादः वंशिका.
धन्यवादः महोदय.
धन्यवादः. अस्तु, अनन्तरं नूतनः अस्ति अत्र द्वारकनाथमहोदय.
नमस्ते भगिनि.
नमस्कारः.
मम समीपे पुस्तकं नास्ति. किं पुस्तकं, पुस्तकं नाम?
इदानीं तवतु प्रत्ययस्य अभ्यासं वयं कुर्मः. भवान् जानाति वा तस्मिन् विषये?
शत्रुशानाच् पत्रयानि जानामि.
अस्तु, तवतु प्रत्ययस्य विषये
तवतु पठितवान्, पठितवन्तौ, पठितवन्तः.
सत्यं सत्यं सत्यम्. इदानीं स्त्रीलिङ्गरूपस्य विषये वयम् अभ्यासं कुर्मः. अस्तु, नदी शब्दं भवती जाना भवान् जानाति वा?
नदी शब्दं नदी नदी अहं जानामि.
वदतु कृपया वदतु.
नदी नद्यौ नद्यः, नदीं नद्यौ नदीः, तदेव अहं वदामि.
आमामां वदतु वदतु.
नदी नद्या नदीभ्यां नदीभिः, नद्यै नदीभ्यां नदीभ्य नदीभ्यः, नद्याः नदीभ्यां नदीभ्यः, नद्याः नद्योः नदीनां, नद्यां नद्योः नदीषु.
सत्यं सुन्दरमस्ति. अहम् एकं लट्लकारूपं वदामि, तस्य कवतुप्रत्ययस्य स्त्रीलिङ्गरूपं भवान् वदतु. उदाहरणार्थं क्रीडति इति लट्लकारूपम् अस्ति, तस्य कवतुप्रत्ययः कथं भवति?
क्रीडितवती.
सत्यं वदति वा?
क्रीडितवती, क्रीडितवत्यौ, क्रीडितवत्यः, क्रीडितवतीं, क्रीडितवत्यौ, क्रीडितवतीः, क्रीडितवत्या, क्रीडितवद्भ्यां, क्रीडितवद्भिः.
एकनिमिषः महोदय, महोदय अत्र अत्र दीर्घ ईकारः उच्चारणम् सम्यक् भवतु. भवत्या भवतीभ्यां भवतीभिः इति अस्ति किल, तादृशं क्रीडितवत्या क्रीडितवतीभ्यां क्रीडितवतीभिः इति दीर्घ ईकारः स्पष्टतया उच्चारणम् आवश्यकमस्ति.
क्रीडितवत्या क्रीडितवतीभ्यां क्रीडितवतीः क्रीडितवतीभ्यः.
क्षम्यतां, तृतीयविभक्ति वदति वा भवान्?
क्रीडितवत्या.
अस्तु अस्तु, समीचीनं.
क्रीडितवतीभ्यां क्रीडितवतीभिः.
सत्यम्. अनन्तरं
क्रीडितवत्यै क्रीडितवतीभ्यां क्रीडितवतीभ्यः क्रीडितवत्याः. पञ्चमी विभक्ति, क्रीडितवत्याः क्रीडितवतीभ्यां क्रीडितवतीभ्यः. षष्ठी विभक्ति, क्रीडितवत्याः क्रीडितवत्योः क्रीडितवतीनां. सप्तमी, क्रीडितवत्यां क्रीडितवत्योः क्रीडितवतीषु.
सत्यं सुन्दरं महोदय, बहु सुन्दरं.
धन्यवादः भगिनी.
धन्यवादः महोदय, धन्यवादः. अस्तु,
तृतीयस्तरे अस्ति संस्कृतभारत्याः.
महोदय, इदानीं वयं गीतासोपानं प्रथमभागं वयं पठामः महोदय.
पुटसङ्ख्या,
पुटसङ्ख्या इदानीम् अहं वदामि, परन्तु तस्मिन् विषये तस्मात् पूर्वं किञ्चित् तवतु प्रत्ययस्य विषये अभ्यासं कृत्वा पञ्चचत्वारिंशत् तमी पुटे वयं पठामः, अग्रे पठामः, परन्तु इदानीं नास्ति.
वंशिका,
वंशिका म्यूट् करोतु कृपया. धन्यवादः.
कक्षायाः विवरणानि प्रेषयतु भगिनी माम्.
आं महोदय, आं प्रेषयिष्यामि. अस्तु, इदानीं किञ्चित् स्पष्टं भविष्यति इति अहं चिन्तयामि इति अहं मन्ये. सर्वेषां कृते प्रश्नाः अस्ति वा, तवतु प्रत्ययस्य स्त्रीलिङ्गरूपं कथं विभक्तिरूपाणि भवन्ति इति स्पष्टमस्ति वा? सर्वेषां कृते अहं पृच्छामि, अस्ति वा नास्ति वा?
अस्ति.
अस्तु, पुल्लिङ्गरूपं वयं कृतवन्तः गतसप्ताहे वयं कृतवन्तः. इदानीमपि स्त्रीलिङ्गरूपस्य विषये अपि वयं किञ्चित् अभ्यासं कृतवन्तः. अस्तु, तावत् तावत् सम्यक् भविष्यति, यत् सम्यक् भविष्यति. इदानीं किं कुर्मः चेत्, गीतासोपानं प्रथमभागे पञ्चचत्वारिंशत्तमी पुटे कथा एका कथा अस्ति, तां कथां वयं पठामः. अस्तु, सर्वे पुस्तकम् अस्ति चेत् स्वीकरोति वा? पेज् नम्बर् 45. पेज् नम्बर् 45 फ्रम् गीतासोपानं बुक् 1. अस्तु, सर्वे स्वीकृतवन्तः वा? सविता भगिनी भवत्याः पार्श्वे अस्ति वा भगिनि?
आं भगिनि अस्ति भगिनि.
अस्तु अस्तु, इदानीं सिद्धा अस्ति किल भवती, आरम्भं करोति वा कथा?
आं भगिनि. भ्रातृमेलनं.
भ्रातृमेलनं समीचीनम्.
ओके,
एकनिमिषः भगिनि, वयं एतत् कस्मात् पूर्वस्मिन्
पुटे भगिनि,
न न न पूर्वपुटे वयं किं किं पठितवन्तः, किं किं पठितवन्तः इति एकं शीघ्रमेव वयं पश्यामः. अत्र पेज् नम्बर् 36 इति स्वीकरोतु.
आं भगिनि,
इति स्वीकरोतु. तत्र नूतनविषयः कः आसीत्? लट्लकाररूपं वयं
लट्लकाररूपे प्रथमपुरुषः, उत्तमपुरुषः, मध्यमपुरुषः
तदेव नूतनविषयः आसीत्. तत्र एकवचने, द्विवचने, बहुवचने कथं लकाराः कथं
लट् लकाररूपे कथम् अस्ति परिचयं कृत्. वि जस्ट् लर्न् दट् नो भगिनि.
सत्यं सत्यं, तदेव आम्, तस्मिन् विषये एव अभ्यासमपि वयं कृतवन्तः.
आं भगिनि,
अस्तु, तस्मिन् विषये एव वयम् अभ्यासमपि कृतवन्तः. किञ्चित् लघु सम्भाषणमपि अस्ति, तदपि वयं कृतवन्तः. अस्तु, अन्तिमपुटे पश्यामः चेत्, पेज् नम्बर् 44 इति पश्यामः चेत्, तत्र संक्षेपगीता इति अस्ति. तत्र किञ्चित् लघु अभ्यासः अस्ति, कुत्र कुत्र क्रियापदानि सन्ति इति दृष्ट्वा किञ्चित् अवगमनम् भविष्यति. परन्तु तस्मिन् विषये अनन्तरं पठामः. अस्तु, तद् वयं न पठितवन्तः, अनन्तरं पठामः. इदानीं पञ्चादश नूतनपाठः, पञ्चादश नूतनपाठः वयं पठामः. भ्रातृमेलनं.
भ्रातृमेलनं,
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 सत्यं सत्यं.
नाम किं भगिनि? भ्रातृमेलनं,
भ्रातृमेलनं, मेलनं नाम किं?
मिल, मीटिङ्ग् सन्ति.
सत्यं, समीचीनं समीचीनं. मिलति,
मिलति
नाम क्रियापदम् अस्ति.
भ्रातृ नाम ब्रदर्, मिल मीटिङ्ग् ए ब्रदर् आर् समथिङ्ग्.
सत्यं, बहु समीचीनं. आम् आम्,
ओके,
मिलति इति क्रियापदम् अस्ति. युडन्तरूपं मेलनं करोति.
मेलनं,
अस्तु, मेलनं करोति,
करोति.
कं मेलनं, कस्य मेलनं? भ्रातृमेलनं,
भ्रातृ भ्रातृमेलनं,
भ्रातुः मेलनं. सत्यं सत्यं.
अत्र
अत्रापि नूतनविषयः अस्ति, सर्वे भ्रमः मास्तु. कश्चन केचन जनाः अन्यकक्ष्यामपि गच्छति, तां तां कृते अहं किं वदामि चेत् सुलभः भविष्यति. परन्तु ये जनाः ये अस्माकं एतत् वर्गमपि आगच्छति चेत् किञ्चित् नूतनविषयः अस्ति, सावधानेन शृण्वन्तु. अस्तु, दोस् हू आर् अटेण्डिङ्ग् अदर् क्लासस् आल्सो, दे मैट् हाव् लर्न्ड् दिस् आल्रेडि, बट् फार् दोस् हू आर् अटेण्डिङ्ग् जस्ट् दिस् क्लास्, प्लीस् प्ले क्लोस् अटेन्शन् इति अहं वक्तुम् इच्छामि. अस्तु, अत्र नूतनविषयमस्ति किम् अस्ति चेत्, आत्मनेपदी, आत्मनेपदी इति नूतन रूपम् अस्ति. नाम इफ् दर् इस् अ वर्ब्, यदा क्रियापदम् अस्ति चेत्. अस्तु, यदा एक एक एकः एकः शब्दः अस्ति इति स्वीकुर्मः. अस्तु, उदाहरणार्थं रामः इति एकः शब्दः अस्ति. द्विविध द्विविध एकः शब्दः अस्ति चेत् द्विविधं भवितुम् अर्हति. यदा नामपदं भवितुम् अर्हति अथवा क्रियापदं भवितुम् अर्हति, किल
भगिनि?
राम एकं शब्दः अस्ति चेत् रामपदं भवितुम् अर्हति अथवा क्रियापदं भवितुम् अर्हति. रामः इति शब्दः अस्ति चेत् नामपदं वा क्रियापदं
वा? अस्तु,
समीचीनम्. उदाहरण अन्य रूपं वदामि, पिबति इति पदम् अस्ति,
क्रियापदं,
क्रियापदमस्ति, नामपदं नास्ति, क्रियापदम् अस्ति,
क्रियापदम् अस्ति.
अस्तु, समीचीनं. यदा क्रियापदम् अस्ति तत्र वयं पिबति इति क्रियापदमस्ति, क्रीडति इति क्रियापदमस्ति, अनन्तरं गर्जति, शोचति, पिबति, हसति इति अनेकानि क्रियापदानि सन्ति किल. भवती कथं जानाति एतद् एतद् क्रियापदम् इति कथं जानाति? अन्तिमवर्ण वर्णः ति 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 इति अन्तिम ह्रस्व इकारः अस्ति चेत् क्रियापदमिति किञ्चित् टिप्पणी अस्ति किल. हसति, क्रीडति इति अस्ति चेत् तादृशं भवति चेत् अन्तिमवर्णः ति ति इति ह्रस्व इकारः भवति इति अस्ति चेत् तत् क्रियापदमिति वयं जानीमः. अनन्तरं कार्यं किमपि कार्यं भवति चेत् अपि क्रियापदमिति वयं जानीमः. अस्तु, परन्तु क्रियापदरूपे अन्यरूपविधः अस्ति. किम् इत्युक्ते एतत् एतानि रूपाणि ये रूपाणि अन्तिमवर्णः ति ति इति अन्तिमवर्णः आगच्छति चेत् ते परस्मैपदी इति वदामः.
परस्मै, ओके.
सर्वे सर्वे भवन्तः पार्श्वे उच्चैः वदन्तु परस्मैपदी पदी परस्मैपदी परस्मैपदी. सर्वे एकवारं वदति वा परस्मैपदी इति उच्चैः वदति वा? पिबति परस्मैपदि वा?
आं भगिनि.
गर्जति
परस्मैपदि.
हसति
परस्मैपदि भगिनि.
जयति
परस्मैपदि.
जीवति
परस्मै.
परस्मैपदि इति वदतु. परस्मैपदि इति वदतु. अन्यरूपमस्ति यदा क्रियापदस्य अन्तिमवर्णः ते 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 इति भवति. अस्तु, अन्तिमवर्णः ते इति भवति. उदाहरणार्थं लज्जते, कामयते, वर्तते, विद्यते. वंशिका म्यूट् करोतु कृपया. वंशिका म्यूट् करोतु कृपया. वंशिका, अस्तु अहं म्यूट् करोमि. केवलं सविता भगिनी एव अन्म्यूट् कृत्वा वदति वा?
आं भगिनि,
क्षम्यताम्. उदाहरणार्थं यदा क्रियापदम् अस्ति तत्र अन्तिमवर्णः ते ते इति अस्ति चेत् उदाहरणार्थं लज्जते, वर्तते, विद्यते, पालयते इति भवति चेत् अन्तिमवर्णः ते इति अस्ति किल?
आं भगिनि.
तद्वर्ण तादृशं भवति चेत् ते आत्मनेपदिनः इति वदामः. आत्मनेपदिरूपम्.
ओके ओके. आत्मने
पदि, आत्मनेपदि इति वदतु. सर्वे उच्चैः वदन्तु आत्मनेपदि, आत्मनेपदि इति उच्चैः वदन्तु. आत्मनेपदि,
आत्मनेपदि.
सत्यम्,
आत्मनेपदि.
इदानीं भगिनी सविता भगिनी भवतीम् उद्दिश्य अहं कानिचन पदानि अहं वदामि, भवती वदतु परस्मैपदिनः वा आत्मनेपदिनः वा इति भवती वदतु. अस्तु
भगिनि. आं भगिनि.
पश्यति
परस्मैपदि भगिनि.
लज्जते
आत्मनेपदि भगिनि.
कामयते
आत्मनेपदि भगिनि.
तिष्ठति
परस्मैपदि भगिनि.
वर्तते
आत्मनेपदि भगिनि.
समीचीनम्. एतत् पर्यन्तं भवती जानाति वा? अस्मिन् विषये अग्रे पठामः, अग्रे पठामः. नूतनविषये परिचयं करोमि. अस्तु.
आं भगिनि, आं भगिनि.
समीचीनं. द्वारकनाथ महोदय.
धन्यवादः भगिनि.
धन्यवादः. नमस्कारः. द्वारकनाथन् महोदय.
आं भगिनि.
भवान् किम् इच्छति महोदय, वदतु महोदय.
कक्षा
महोदय, अहं न श्रुतवती महोदय.
कक्षायाः समयः
कं सप्ताहे कतिवारं कतिवारं चलति कक्षा?
सर्वदा शनिवासरे भवति महोदय.
शनिवासरे अष्टवादने?
आम् अस्तु महोदय. आं महोदय, आम् आम् अष्टवादन आरभ्य सार्धनववादनपर्यन्तं प्रति शनिवासरे भवति महोदय.
धन्यवादः भगिनि.
धन्यवादः. इदानीं माधवी भगिनी अस्ति वा? क्षम्यतां, क्लीव्लेण्ड् माधवी भगिनी.
आं भगिनि.
विद्यते?
आत्मनेपदी भगिनि.
अस्ति?
परस्मैपदी.
पलायते?
आत्मनेपदी.
वदति?
परस्मैपदी.
स्मरति?
परस्मैपदी.
स्मयते?
आत्मनेपदी.
समीचीनं, धन्यवादः. पद्मिनी भगिनी.
आं भगिनि.
भाषते?
आत्मनेपदी.
पतति?
परस्मैपदी.
द्योतते?
आत्मनेपदी.
कर्षति?
परस्मैपदी.
स्निह्यति?
परस्मैपदी.
म्रियते?
आत्मनेपदी.
समीचीनं, धन्यवादः.
धन्यवादः.
इदानीम् अग्रे गच्छामः. प्रथमं अत्र पेज् नम्बर् 45 अत्र पञ्चचत्वारिंशत्तमीपुटे कथा अस्ति, परन्तु तस्य पूर्वं सप्तचत्वारिंशत्तमीपुटे पेज् नम्बर् 47 मध्ये किञ्चित् पठित्वा अनन्तरं कथां पठामः वयम्. अस्तु, सर्वे पेज् नम्बर् 47 मध्ये स्वीकरोति चेत् समीचीनं भविष्यति. अस्तु, नास्तु, समीचीनं. राधिका भगिनि.
आं भगिनि.
भवती अवधेयम् इति अस्ति किल पेज् नम्बर् 47 मध्ये, तत् पठति वा? पठतु कृपया.
अवधेयं क्रियापदस्य मूलं धातुः. यथा पठति इत्यस्य क्रियापदस्य मूलं पठ् इति धातुः. धातवः त्रिविधाः सन्ति, परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः च इति. पठ् लिख् क्रीड् मिल् गम् इत्यादयः धातवः परस्मैपदिनः. बन्ध् एद् लब् ईक्ष् लज् इत्यादयः धातवः आत्मनेपदिनः. परस्मैपदीनां धातूनां लट् लकारस्य प्रथमपुरुष एकवचनरूपेषु अन्ते ति इति श्रूयते. यथा पठति, लिखति, शोचति. आत्मनेपदीनां धातूनां लट्लकारस्य प्रथमपुरुष एकवचनरूपेषु अन्ते ते इति श्रूयते. यथा वीक्षते, लज्जते, कम्पते. उभयपदीनां तु धातूनां लट्लकारस्य प्रथमपुरुष एकवचनरूपेषु अन्ते ति ते एतद् उभयमपि श्रूयते. यथा करोति, कुरुते. याचति, याचते. जानाति, जानीते.
सत्यं, बहु धन्यवादः भगिनि. धन्यवादः.
धन्यवादः. धन्यवादः भगिनि.
शोभना भगिनि.
आं भगिनि.
भवती अवगच्छति वा किं पठितवती? राधिका भगिनी किं पठितवती इति भवती अवगच्छति वा?
आं भगिनि.
किञ्चित् वदति वा? यदा वयं जातुः धातुः पश्यामः चेत्, पट् इति धातुः इति स्वीकुर्मः चेत्, तद्दृष्ट्वा परस्मैपदी वा आत्मनेपदी वा उभयपदिन वा इति ज्ञातुं शक्नुमः वा? ज्ञातव्यम् अस्ति, गत्वा गच्छता कालेन ज्ञातव्यम् अस्ति, परन्तु वयं साधारणतया ज्ञास्यामः यदा धातुः अस्ति चेत्, यदा परस्मैपदिनः वा आत्मनेपदिनः वा उभयपदिनः वा इति ज्ञास्यामः. अस्तु, क्रियापदं दृष्ट्वा दृष्ट्वा इदानीम् आरम्भकाले वयं क्रियापदं दृष्ट्वा एव वयं ज्ञास्यामः. किमर्थं चेत् वयं धातुविषये अधिकं वयं न पठितवन्तः. अस्तु, अवगच्छति वा? क्षम्यताम्. यदा पठति इति अहं वदामि चेत्, ओ अग्रे अन्तिमवर्णः तीका इकारः अस्ति, अतः परस्मैपदिनः इति वयं ज्ञातुं शक्नुमः. करोति इति अस्ति चेत् वयं परस्मैपदिनः इति वयं ज्ञातुं वक्तुं शक्नुमः. परन्तु वयं न जानीमः कृ इति धातुः अस्ति चेत् करोति अपि वक्तुं शक्नुमः, कुरुति अपि वक्तुं शक्नुमः इति वयं न ज्ञातवन्तः किल. गच्छता कालेन वयं पठामः, परन्तु यदा धातुः अस्ति चेत् धातुः दृष्ट्वा एव वयं ज्ञातव्यम् अस्ति यदा परस्मैपदिनः वा आत्मनेपदिनः वा अथवा उभयपदिनः वा इति वयं ज्ञातुं शक्नुमः. अवगच्छति वा?
आं भगिनि.
भवती आङ्ग्लभाषा जानाति किल?
आम् अहं जानामि.
वदतु कृपया, किं अवगतवती इति.
सो वट् ऐ अण्डर्स्टेण्ड् इस् इफ् देर् इस् अ पठ धातु देन् वि नो देट् इट् इस् परस्मैपदी, बट् देर् आर् सम् धातुस् विच् इफ् वी हेव् नाट् लर्न् so we do not know whether it falls into parasmaipadi or atmanepadi or it could be ubhaypadi also, but
satyam 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 parantu arambhakale vayam na nyasyamah.
आरम्भकाले न ज्ञास्यामः,
परन्तु
अभ्यासेन
साधारणतया वयं ज्ञातुं शक्नुमः यदा धातुः अस्ति चेत् तादृशं कथं भवति, आत्मनेपदि वा परस्मैपदिनः वा उभयपदिनः इति. गच्छता कालेन अधिकम् अधिकं वयं पठामः चेत् किञ्चित् सुलभः भविष्यति, परन्तु क्रमः तादृशम् अस्ति. द रूल् इस् लैक् देट् वेर् इफ् यु लिसन् इवन् वेन् यु लिसन् आर् लुक् अट् अ धातु यु शुड् बि इट्स् यु शुड् बि क्लियर् वेदर् वेर् इट् फाल्स् वेदर् इट् फाल्स् इन् टु परस्मैपदिनः वा आत्मनेपदिनः वा आर् उभयपदिनः वा.
ओके.
But at this stage, it's difficult to understand whether a verb has two forms or not, things like that. But at least here is a stage where we are introducing these three forms of verbs.
Verbs, yes.
Asu, idanim spashtam asti va. Sarvesham krute aham pruchami, spashtam asti va.
Spashtam asti, bhagini. Spashtam asti,
bhagini. Arthaha asti, rupani santi, anekani vishyani nyatavyam asti. केवलं परिचयमेव इदानीम् अभवत्, अतः भ्रमः मास्तु. अग्रे अग्रे गत्वा गत्वा वयम् अधिकविषयाणि पठामः.
क्षम्यतां भगिनि,
वदतु कृपया.
उभयपदीनां कथं ज्ञातव्यम्? उभयपति हौ टु ऐडेण्टिफै मेडम्?
वयं न जानीमः महोदय भगिनि, इदानीमेव वयं न ज्ञातुं शक्नुमः. गच्छता कालेन एव अधिक अभ्यासः आवश्यकम्, अभ्यासेनैव भविष्यति. अत्र टिप्पणी किमपि नास्ति,
टिप्पणी
किमपि नास्ति, केवलं दृष्ट्वा दृष्ट्वा
ते जानामि, बट् उभयपति वि डोण्ट् नो वेदर् वन् धातु इस् उभयपति आर्
वयं न इदानीम् इदानीं वयं न ज्ञातुं शक्नुमः. सत्यं, गच्छता कालेन वी हाव् टु बिल्ड् अवर् ओन् लिस्ट् आफ़् वोकाब्युलरि दट् वि नो अण्ड् वि डु नाट् नो, अण्ड् वी हाव् टु इन्क्रीस् द लिस्ट् आफ़् वोकाब्युलरि फार् अस् टु बिकम् गुड् इन् दिस्.
धन्यवादः
तावदेव अभ्यासरूपेण. आम् आम्
अभ्यास
अभ्यासेन वा भविष्यति. अस्तु अस्तु, अत्र वयम् अस्तु सिङ्गपूर् माधवी भगिनी
आं भगिनि,
भवती जानाति वा लट्लकारूपं पिबति इति अस्ति चेत् लट्लकारूपाणि वक्तुं शक्नोति वा भवती?
पिबति अस्ति चेत् लट्लकाररूपाणि लैक् पिबति, पिबतः, पिबन्ति.
सत्यम्. अनन्तरं
पिबसि, पिबतः, पिबत, पिबामि, पिबावः, पिबामः.
बहु समीचीनं, धन्यवादः भगिनि. यथा यथा लट्लकाररूपाणि सन्ति, परस्मैपदिनः अस्ति चेत् लट्लकाररूपाणि सन्ति किल, तादृशमपि आत्मनेपदिनः अस्ति चेत् तस्य रूपाणि अपि सन्ति.
आं भगिनि.
अस्तु, कुत्र पश्यामः चेत् पेज् नम्बर् 48 मध्ये पश्यन्तु सर्वे. अत्र पश्यामः चेत् एदते इति अस्ति किल.
आं भगिनि.
एकवारं एतानि रूपाणि पठन्ति वा एकवारम्?
आं भगिनि.
अत्र एदेव धातुः अस्ति.
आं भगिनि.
धातुः अस्ति, तस्य लट्लकाररूपाणि एतानि सन्ति. एकवारं पठतु कृपया.
आं भगिनि. एद् धातोः लट्लकारे रूपाणि एवं भवन्ति. प्रथमपुरुषः एदते, एदेते, एदन्ते. मध्यमपुरुषः एदसे, एदेथे, एदद्वे. उत्तमपुरुषः एधे, एधावहे, एधामहे.
सुन्दरम्. केवलं परिचयार्थम् अत्र इदानीं पठितवन्तः. यथा परस्मैपदिनस्य लट्लकाररूपाणि वयं सुलभतया जानीमः किल, पिबति, पिबतः, पिबन्ति, तादृशम् आत्मनेपदिनस्य आत्मनेपदिनस्य रूपाणि अपि सन्ति. परन्तु अभ्यासम् अनन्तरं कुर्मः. अभ्यासम् अनन्तरं कुर्मः. इदानीं कथां पठामः, अनन्तरं तस्मिन् विषये अभ्यासः कृत्वा अग्रे गच्छामः. अस्तु, धन्यवादः भगिनि. धन्यवादः भगिनि. माधवी भगिनि, क्लीनर् माधवी भगिनि.
आं भगिनि.
भवती कथाम् आरम्भं करोति वा?
आं भगिनि. श्रूयते वा भगिनि?
इदानीं श्रूयते.
आं भगिनि. भ्रातृमेलनम्. आत्मनेपदिनां धातूनां परिचयः. लट्लकारः.
लट्लकाररूप नाम किं भगिनि? आङ्ग्लभाषायां वदतु अथवा संस्कृते अपि वदतु, किं जानाति लट्लकाररूप?
वर्तमानकालं सूचयति.
सत्यं सत्यं, वर्तमानकालः. आङ्ग्लभाषायां प्रेसेण्टेन्स्.
एतां कथाम् उच्चैः पठत, अवगच्छत च. पाण्डवाः वनवासम् आचरन्तः. बदरिकाश्रमम् आगताः. द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशु विहरन्तः रमन्ते.
अत्र काननप्रदेशेषु,
काननप्रदेशेषु अग्रे पठामि
वा? अग्रे पठतु, समापयतु.
द्रौपदी अपि विहरन्ती मोदते.
समीचीनम्. अत्र एकं वक्तुम् इच्छामि. एतस्यां कथायां कस्मिन् विषये अवधातव्यम् अस्ति चेत्, क्रियापदानि सर्वाणि क्रियापदानि आत्मनेपदिरूपे सन्ति. अस्तु, एतद् प्रमुखविषयः अस्ति. अनन्तरम् आत्मनेपदिरूपं विना अन्यरूपाणि किम् अस्ति चेत् क्तप्रत्ययः अस्ति. क्तप्रत्ययः नाम किम्? उदाहरणार्थं पठति इति अस्ति चेत् तस्य तव तु प्रत्ययः किं भगिनी वदति वा? माधवी भगिनी, भगिनी,
पठितवान्
स्त्रीलिङ्गरूपं पठितवती इति भवति किल तत् तव तु प्रत्ययः अस्ति कृत प्रत्ययः इत्युक्ते
पठितः पठिता अस्ति वा भगिनि
सत्यं सत्यं वदतु पठितः तदपि त्रिषु लिङ्गेषु अस्ति पठति इति क्रियापदं घटनाकारूपम् अस्ति चेत् तस्य क्त प्रत्ययः किम् इति प्रश्नः अस्ति चेत् पठितः पुल्लिङ्गमस्ति पुल्लिङ्गरूपमस्ति पठिता स्त्रीलिङ्गमस्ति पठितम् इति नपुंसकलिङ्गरूपम् अस्ति पठितः पठिता पठितं पठितः इति पदस्य विभक्तिः रामशब्दस्य भवति पठिता इति शब्दविभक्तिरूपाणि यदा लतारूपाणि सन्ति तादृशं यथा लतारूपाणि सन्ति तादृशं भवति अनन्तरं पठितम् इति अस्ति चेत् वनं शब्द इव भवति स्पष्टमस्ति वा
आं भगिनि
अत्र प्रमुखक्रियापदरूपाणि कथं भवति अत्र एतस्यां कथायाम् आत्मनेपदिरूपिणः रूपिणः अस्ति सन्ति अनन्तरम्
अनन्तरम् अक्ताप्रत्ययरूपाणि
सन्ति अनन्तरम् अन्यविषयः तृतीयरूपाणि किम् इत्युक्ते शत्रुप्रत्ययः अनेकानि सन्ति किं भगिनि
शत्रुप्रत्ययरूपाणि अपि सन्ति
के सन्ति इदानीं भवती वदतु प्रथमं
प्रथमम् आत्मनेपदि क्रियापदरूपाणि सन्ति
सत्यम्
अनन्तरम् अक्तप्रत्ययः रूपाणि सन्ति
सत्यम्
अनन्तरं शत्रुप्रत्ययरूपाणि सन्ति
आम् सत्यम् एतानि रूपाणि भवन्ति अतः नूतनविषयाणि अनेकानि सन्ति भ्रमः मास्तु सावधानेन वयं मिलित्वा पठामः अस्तु मिलित्वा पठामः सर्वं ज्ञातुं शक्नुमः अस्तु अतः भ्रमः मास्तु सर्वे किं वक्तुमिच्छामि बहु सुन्दरमस्ति एतां कथा व्याकरणरीत्या अपि सुन्दरमस्ति कथायाः नीतिः अपि बहु सुन्दरमस्ति अस्तु मिलित्वा पठामः भगिनी भवती पुनः प्रथमपरिच्छेदः पठति वा माधवी भगिनी
आं भगिनि पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते द्रौपदी अपि विहरन्ती मोदते
सत्यम् इदानीं क्रमेण पश्यामः अहं प्रथमं किम् उक्तवती आत्मनेपदिनः सन्ति प्रत्ययानि सन्ति शत्रुप्रत्ययानि सन्ति इति किल
आं भगिनि
अत्र भवती वदतु कुत्र कुत्र आत्मनेपदिनः सन्ति
रमन्ते मोदते
बहु सुन्दरं कथं भवती ज्ञातवती रमन्ते
मोदते क्रियापदस्य अन्ते ते इति अस्ति भगिनि
बहु सुन्दरम् इदानीं वयं दृष्टवन्तः अस्तु इदानीम् आरम्भतः पठामः पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः इति अस्ति किल तस्य अर्थः कः वयं पाण्डवाः इत्युक्ते के जनाः इति वयं सर्वे जानीमः इति अहं चिन्तयामि अस्तु पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः इत्युक्ते किम्
वैल्ड् एवर् एक्सिक्यूटिङ्ग्
सरलरीत्या सरलसंस्कृतरूपेण वदतु सरलसंस्कृतवाक्यं वदतु
पाण्डवाः वने गच्छन्ति
सरलरूपेण वदतु कथम् इत्युक्ते पाण्डवाः वनं गच्छन्ति
पाण्डवाः वनं गच्छन्ति ते बदरिकाश्रमम्
आगच्छन्ति.
अस्तु, तावत् तावत् अत्र एव स्थगयतु. पाण्डवाः वनवासम् आचरन्तः आचरन्तः इत्युक्ते अत्र रूपाणि भिन्न रूपः भिन्नम् अस्ति. लट्लकारूपं कथं भवति? आचरन्ति इति लट्लकारूपं बहु अस्ति. आचरन्ति, आचरति, आचरत, पठति, पठत, पठ, क्षम्यतां, पठति, पठतः, पठन्ति इति अस्ति किल, तादृशम् आचरति, आचरतः, आचरन्ति इति लट्लकाररूपाणि सन्ति. परन्तु अत्र आचरन्तः इति क्रियापदम् अस्ति, तद् लट्लकाररूपं नास्ति. अस्तु, कः रूपं सूचय, कं रूपं सूचय, किं रूपं सूचयति भगिनि? भवती जा वक्तुं शक् प्रयत्नं करोति वा?
शत्रुप्रत्ययरूपं.
सत्यं, सत्यम्. अत्र इद उदाहरणार्थं पठति इति अस्ति चेत् शत्रुप्रत्ययस्य रूपं कथं भवति?
पठन्.
सत्यं. स्मरति इति अस्ति चेत्?
स्मरन्.
क्रीडति इति अस्ति चेत्?
क्रीडन्.
सत्यम्. अत्र एव स्थगयतु. अनन्तरं बदरिकाश्रमं वनं गतवन्तः. अनन्तरं बदरिकाश्रमम् आगताः. अत्र लट्लकाररूपं किं भवति?
आगच्छति.
आगच्छति एकवचने, आगच्छन्ति बहुवचने. अत्र आगतः इति अस्ति चेत् एकवचनम्, आगताः इत्यस्य बहुवचनम् अस्ति. अत्र आगतः, आगताः इत्यस्ति चेत् कीदृशक्रियापदम् अस्ति अत्र?
पास्ट् टेन्स् वक्तुं भूतकालं
भवती आरम्भकाल यदा यथा कथं कथायाः आरम्भे भवती उक्तवती किल, त्रीणि विधा क्रियापदानि सन्ति इति.
तप्रत्ययः,
तप्रत्ययः अत्र अस्ति. गतः, गता, गतम्. आगतः, आगता, आगतम् इति अत्र अस्ति. अत्र आगताः बहुवचने अस्ति, तप्रत्यय आगताः. अस्तु, स्पष्टमस्ति वा? अत्र आगच्छन्ति इति लिखामः चेत् सुन्दरमस्ति, परन्तु शैली भिन्नाः सन्ति अत्र. गच्छतः कारणे किञ्चित् नूतनविषयाः भवितुम् अर्हति. अत्र अत्र आगच्छन्ति लट्लकाररूपम् अस्ति, परन्तु अत्र तप्रत्ययः उपयुज्य क्रियापदं लिखितम् अस्ति. अस्तु, पाण्डवाः वनवासम् आचरन् आचरन्तः बदरिकाश्रमम् आगताः इति अस्ति. अत्र किमर्थम् अत्र आचरन् आचरन् आचरन्तः इति शत्रुप्रत्ययः किमर्थम् अस्ति? कस्य कस्मिन् स्थले शत्रुप्रत्ययः प्रयोगं कुर्मः वयम्? शत्रुप्रत्ययस्य अर्थः कः?
एकस्मिन् समये
सत्यं, सत्यम्. एकस्मिन् समये कार्यद्वयं भवति चेत् शत्रुप्रत्ययः भवति. अत्र कार्यं द्वयं किम् अस्ति? वनवासम् आचरति, चरति इति एकं क्रियापदमस्ति, आगच्छति इति एकं क्रियापदमस्ति. कार्यद्वयम् अत्र भविष्यति. अतः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः. अस्तु, स्पष्टमस्ति वा?
आं भगिनि.
पाण्डवाः वनवासं, दे आर् गोयिङ्ग् टु वनवासं, दे आर् कमिङ्ग् टु वनवासम्. अस्तु, पाण्डवाः वनवासम् आचरन्तः. किमर्थम् आचरन्तः? किमर्थं बहुवचने अस्ति?
पाण्डवाः बहुवचने अस्ति, आचरन्तः बहुवचने अस्ति.
सत्यं, पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः. किमर्थम् आगताः बहुवचने अस्ति?
आगताः पाण्डवाः बहुवचने अस्ति, आगताः अपि बहुवचने अस्ति.
सत्यं, कर्तृपदं पाण्डवाः, पाण्डवाः बहुवचने अस्ति. अतः आचरन्तः शत्रुप्रत्ययः अस्ति, आगतः तप्रत्ययः अस्ति. अतः द्वयमपि बहुवचने स्तः. स्पष्टमस्ति वा? सर्वेषां कृते अहं पृच्छामि, सिङ्गपूर् माधवी भगिनी, सविता भगिनी, पद्मिनी भगिनी, सर्वे अवगच्छन्ति वा?
स्पष्टमस्ति
भगिनि,
स्पष्टमस्ति.
आं भगिनि.
समीचीनं समीचीनं. प्रश्नः अस्ति चेत् पृच्छन्तु. अस्तु,
त्रीणि त्रीणि अपि क्रियारूपाणि भगिनि.
कुत्र त्रीणि सन्ति? केवलम् आचरन्तः,
आचरन्तः, आगताः,
तावदेव.
आत्मनेपदी क्रियारूपमेव. आचरन्तः, आगताः अपि क्रियारूपाणि.
भवान् किं वक्तुम् इच्छति? अहं न अवगच्छामि.
पाठे त्रीणि क्रियारूपाणि, त्रीणि त्रिविधानि क्रियारूपाणि सन्ति. आचरन्तः क्रियारूपमेव, आगताः अपि क्रियारूपमेव.
सत्यं सत्यं. केवलम् अत्र इदानीं विवरणं किं कृतवन्तः चेत् केवलं प्रथमपरिच्छेदे प्रथमवाक्यमेव वयं पठितवन्तः. तस्मिन् विषये एव एतां चर्चां वयं कृतवन्तः. अनेकानि विषयाणि सन्ति किल, अतः सावधानेन वयं पठामः. अत्र किमर्थम् आगताः इति उक्तवन्तः? आचरन्ति इति अपि वक्तुं शक्नुमः किल? आम्, सत्यं वक्तुं शक्नुमः, परन्तु नूतनशैलीः अस्ति चेदेव वयं नूतनविषयाणि अपि पठितुं शक्नुमः किल? अतः तस्मात् कारणात् तादृशं नूतनपदानि, नूतनक्रियापदरूपाणि कृतवन्तः, लिखितवन्तः. अस्तु अस्तु, समीचीनं माधवी भगिनी. अग्रे पठति वा भगिनि?
धन्यवादः. एकदा द्रौपदी,
न न न न न न, द्वितीयवाक्यं पठतु, द्वितीयवाक्यं.
क्षम्यतां भगिनि. द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते.
अत्र स्थापयतु, अत्र एव स्थगयतु. अस्तु, धन्यवादः भगिनि. अन्यं
धन्यवादः.
धन्यवादः. अस्तु, राधिका भगिनि.
आं भगिनि.
अत्र द्वितीयवाक्यमस्ति, द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते इति अस्ति किल? अत्र आत्मनेपदिनः किं कुत्र अस्ति?
रमन्ते,
रमन्ते. अस्तु, एकवचने अस्ति वा बहुवचने अस्ति वा?
बहुवचने अस्ति. पाण्डवाः बहुवचने अस्ति, अतः रमन्ते बहुवचनमस्ति.
अस्तु, अत्र पाण्डवाः एतस्मिन् वाक्ये, केवलम् एतस्मिन् वाक्ये पाण्डवाः इति कुत्रापि नास्ति. अतः कः शब्दः पाण्डवाः पाण्डवान् सूचयति? समीचीनं. शब्दः सूचयति. अस्तु, ते इत्युक्ते पाण्डवाः, ते रमन्ते, ते नाम पाण्डवाः रमन्ते. समीचीनम्. अस्तु, ते इति शब्दः शब्दस्य परिचयं करोति वा?
सः, तौ, ते, दकारान्त सर्वनामपद प्रथमाविभक्ति बहुवचनं.
दकारान्त पुल्लिङ्ग शब्दः,
पुल्लिङ्ग पुल्लिङ्ग,
दकारान्त पुल्लिङ्ग शब्दः बहुवचने, प्रथमाविभक्ति बहुवचने अस्ति इति वक्तव्यं. पुनः पूर्वं सर्व सम्यक्तया वदति वा?
दकारान्त सर्वनामपद पुल्लिङ्ग प्रथमाविभक्ति बहुवचनं.
सत्यं सत्यम्. इदानीं भवती वदतु, द्रौपद्या इति अस्ति किल, का विभक्तिः?
तृतीया विभक्ति अस्ति.
सत्यं. सहिताः इति अस्ति किल, का विभक्तिः?
सहिताः
अर्थः कः? सहितः इति पदस्य अर्थः कः?
सः द्रौपद्या सह
अर्थः अर्थः कथमस्ति? राधिका भगिनी केवलं भवती एव अन्म्यूट् कृत्वा भागं वोढुं शक्नोति वा? राधिका भगिनी भवती अन्म्यूट् कृत्वा वदतु कृपया. अन्यध्वनिः अहं श्रुतवती अतः अहं म्यूट् आल् कृतवती.
आं भगिनि शृणोति वा?
आम् अहम् इदानीं
श्रूयते वा भगिनि? द्रौपद्या सह पाण्डवाः सुन्दरं काननं विहरन्तः सन्तोषेण विहरन्ति.
सत्यं सत्यम् इति अर्थः. बहु सुन्दरम् अस्ति. बहु सुन्दरम्. अत्र द्रौपद्या तृतीया विभक्तिः अस्ति. सहिताः इति शब्दस्य अर्थः सः इति अर्थः भविष्यति किल? सः समीचीनं. सः इति अस्ति चेत् का विभक्तिः?
तृतीया विभक्तिः.
बहु समीचीनं. तृतीया विभक्तिः. अनन्तरम् अन्यविषयः अपि अत्र वक्तव्यमस्ति. किम् इत्युक्ते अहं म्यूट् करोमि भगिनि. अहं म्यूट् करोमि अनन्तरं भवती अन्म्यूट् कृत्वा आगच्छतु. अस्तु. अत्र सहिताः इति शब्दस्य विषये अहं किञ्चित् वदामि. सः इति अर्थः भविष्यति. सः इति अर्थः भविष्यति. अस्तु. परन्तु अत्र सः इति अस्ति चेत् तत् अव्ययं भवति. सः इति सहिताः इति स्थाने सः इति उपयोगं कुर्मः, पदम् उपयोगं कुर्मः चेत् किं भविष्यति? अव्ययं भवति. अव्ययम् इत्युक्ते किम्? राधिका भगिनी भवती वदति वा अव्ययम् इत्युक्ते किम्?
अव्ययम् अस्ति चेत् नो चेञ्ज् इन् एनिथिङ्ग्. चेञ्ज् इन् पुरुषः, नो चेञ्ज् इन् पुरुषः विभक्तिः
वचनं. धन्यवादः भगिनि. समीचीनं. धन्यवादः. अस्तु. किम् इत्युक्ते अव्ययम् इत्युक्ते यस्य रूपपरिवर्तनं सदा न भवति. यस्य रूपपरिवर्तनं सदा न भविष्यति. अस्तु. लिङ्गपरिवर्तनं न भविष्यति. वचनपरिवर्तनं न भविष्यति. पुरुषपरिवर्तनं कदाचित् न भविष्यति. अस्तु. तद् पदम् अव्ययमिति वदामः. तादृशम् अस्ति पदं सः. अस्तु. द्रौपद्या सह ते तत्र रमणीयेषु इति अस्ति चेत् अव्ययमिति भविष्यति. परन्तु अत्र सहिताः इति अस्ति किल, तस्य अर्थः सः एव. परन्तु रूपस्य विषये किं वक्तुं शक्नुमः? अत्र विशेषणम् इति अस्ति. अस्तु. विशेषणं कस्य विशेषणं? द्रौपद्या इति अस्ति किल, तस्य विशेषणं भविष्यति. अस्तु. द्रौपद्या इति विशेषणं न, ते इति शब्दस्य विशेषणं भविष्यति. क्षम्यतां, ते इति शब्दस्य विशेषणं भविष्यति. कथं विशेषणं भविष्यति इत्युक्ते सहितः सहिताः इति द्वयं भविष्यति. एकवचने सहितः, बहुवचने सहिताः. अस्तु. सर्वदा सहितः इति शब्दः विशेष्यम् अनुसृत्य विशेषम् इत्युक्ते किं? विशेषम् अनुसृत्य एव भवति. विशेषम् इत्युक्ते केवलं नामपदमेव किल, रामः, लता, रमेशः, गणेशः इति अस्ति चेत् नामपदमिति अस्ति, तदेव विशेष्यम् इति वदामः. सर्वदा विशेष्यम् अनुसृत्य एव भवति. विशेष्यम् अनुसृत्य किं भवितुम् अर्हति? विशेषणं भवति. सर्वदा सहितः अथवा सहिताः इति शब्दः विशेष्यम् अनुसृत्य एव भवति. अवगच्छति वा अहं किं वक्तुम् इच्छामि इति? अतः तस्य विभक्तिः, अतः तस्य विभक्तिः अपि अस्ति. अस्तु, रामः इति शब्दस्य विभक्तिः कथम् अस्ति? तादृश अपि सहितः, सहितौ, सहिताः इति विभक्तिः अस्ति. अवगच्छति वा? तस्य नाम कथं भवति चेत् विशेष्यनिघ्नः शब्दः इति वदामः. किं? विशेष्यनिघ्नः शब्दः, विशेष्यनिघ्नः शब्दः इति वदामः. इत्युक्ते किं? सर्वदा एतानि शब्द एतानि पदानि विशेषमनुसृत्य एव भवति चेत् ते शब्दानि तानि शब्दानि विशेषनिघ्नः इति वदामः. अस्तु, उदाहरणं. आम् आम्, विशेष्यनिघ्नः शब्दः इत्युक्ते सर्वदा विशेष्यम् अनुसृत्य एव भवति. इट् मीन्स् इट् विल् आल्वेस् बी एस् एन् अब्जेक्टिव्, इट् विल् आल्वेस् कम् एस् एन् अब्जेक्टिव् फार् अ नौन्. विशेष्यनिघ्नः शब्दः इति वदामः. दट् मीन्स् इट् विल् आल्वेस् ओन्ली बी एस् एन् अब्जेक्टिव्.
विघ्नः मीन्स् ऑब्स्टेकल् नो, विघ्नः विघ्नः विनायक, विघ्नः विघ्नविनायक,
विघ्नः न विघ्नः नाट् विघ्नः निघ्नः निघ्नः
न न न
न निवृत्ति इति वदामः. निवृत्ति
निघ्नः विशेष निघ्नः
निघ्नः शब्दः इति वदामः.
धन्यवादः भगिनि.
आम् आम् आम्, अत्र ते इति शब्दः के तस्य तस्य पदपरिचयं राधिका भगिनी कृतवती किल, ते इति शब्दस्य पदपरिचयं कृतवती. अतः ते इति शब्दः विशेष्यम् अस्ति, तस्य विशेषणं सहिताः इति शब्दः. अस्तु, अत्र द्रौपद्य ते सहिताः द्रौपद्याः सहिताः तत्र रमणीयेषु कारणप्रदेशेषु विहरन्तः रमन्ते. रमन्ते नाम देवर् डिलैटेड्, देवर् हेपी इति अर्थः. अनन्तरम् अत्र रमणीयेषु कारणप्रदेशेषु इत्युक्ते किं? का विभक्तिः? विभक्तिः का?
पद्मिनी.
सत्यं, सप्तमी बहुवचनं, सप्तमी बहुवचनम्. अत्र विहरन्तः इति अस्ति किल, विहरन्तः कीदृशशब्दः? राधिका भगिनी भवती वदति वा?
विहरन्तः शत्रुप्रत्ययः.
वचनं किं?
वचनं बहुवचनं.
सत्यं, सत्यं. विहरन् विहरति इति लट्लकाररूपम् अस्ति, तस्य शत्रुप्रत्ययः विहरन्, विहरन्तौ, विहरन्तः. अत्र विहरन्तः रमन्ते इति अस्ति. अस्तु, तावदेव. विहरन्ति, विहरणं करोति, विहरति नाम विहरणं करोति. दे वेण्ट् फार् अन् पिक्निक् इति अर्थः, तादृशं भवति.
Okay.
They were enjoying in a place, in an outing. तादृश अर्थः भवति. अतः अत्र विहरन्तः रमन्ते इति पदमस्ति. द्रौपद्या सहित अत्र सहिताः शब्दस्य अर्थः अपि वयं ज्ञातवन्तः. अनन्तरं विहरन् इति शब्दः शत्रुप्रत्ययः अस्ति, रमन्ते इति आत्मनेपदिनः अस्ति. स्पष्टमस्ति वा राधिका भगिनि?
आं भगिनि.
अस्तु, सर्वेषां कृते अहं पृच्छामि. आम्, धन्यवादः. सर्वेषां कृते अहं पृच्छामि, एतत् स्पष्टम् अस्ति वा एतत् पर्यन्तम्?
आं भगिनि.
आं भगिनि,
स्पष्टमस्ति भगिनि.
समीचीनं. किमस्ति
पद्मिनी?
वदतु भगिनि,
प्रत्यय पुनः एकवारं वदति वा?
कुत्र अस्ति का प्रत्ययः अत्र भवति वदतु?
अहं न जानामि.
प्रथमवाक्यं वदतु भगिनि.
आगताः
भगिनि राधिका भगिनी, अहं पद्मिनी भगिनीम् उद्दिश्य पृच्छामि, सा वदति. अस्तु धन्यवादः. राधिका पद्मिनी भगिनी भवती वदति वा? प्रथमवाक्यं पठतु, प्रथमवाक्यं पठतु.
भवती वदति वा पठितः पठितः पठितं
सत्यं पठति इति लट्लकाररूपम् अस्ति चेत् एकनिमिषः भगिनी पद्मिनी भगिनी एकनिमिषः, अन्यध्वनिः अपि आगच्छति, केवलं भवती एव अन्य करोति वा इति अहं पश्यामि. अस्तु वदतु वदतु कृपया.
पठति लट्लकाररूपम् अस्ति चेत् प्रत्ययः पठितः पठिता पठितं भवति.
सत्यं सत्यम्. अस्तु
पठिताः कुत्र अस्ति?
अस्तु उदाहरणार्थं पठितः इति शब्दं स्वीकुर्मः. अस्तु पठितः इति शब्दस्य विभक्तिः वदामः वयम्. अस्तु रामशब्दवत् भवति.
ओ पठितः पठितौ पठिताः बहुवचने पठिताः अस्ति, आगताः बहुवचने अस्ति.
तावदेव.
आगच्छामि भगिनि.
धन्यवादः. स्पष्टमस्ति वा?
स्पष्टम्.
अत्र आगतः भवती वदतु त्रिषु लिङ्गेषु.
आगतः आगतौ आगताः
सत्यं. त्रिषु लिङ्गेषु वदतु, केवलं प्रथम प्रथम एकवचनमेव वदतु भवती.
आगतः
त्रिषु लिङ्गेषु केवलं प्रथम एकवचनमेव वदतु. आगतः आगता
आगता आगतम्
तावदेव. क्रीडति
क्रीडति क्रीडितः
क्रीडतः
क्रीडतः
क्रीडतं सत्यम्. अनन्तरं लिख लिखति
लिखतः लिखता लिखतं
तावदेव. अस्तु दशरूपाणि विभक्तिरूपाणि अपि भवितुम् अर्हति. वयं अग्रे कथं ज्ञातुं शक्नुमः इति वयं पठामः. तवतु रूपाणि अन्यविभक्तिरूपाणि अस्ति चेत् कथं ज्ञास्यामः इति पठामः वयं, परन्तु सरलरूपाणि अत्र सन्ति. भवती अग्रे पठतु द्रौपदी, अन्तिमवाक्यं पठतु द्रौपदी.
द्रौपदी अपि विहरन्ती मोदते.
अस्तु द्रौपदी अपि विहरन्ती मोदते. अत्र क्रियापदं कथम् अस्ति?
मोदते आत्मनेपदे अस्ति.
समीचीनम्. अनन्तरम् अत्र
विहरन् विहरन्तौ विहरन्तः.
अस्तु
विहरति
अत्र भगिनी पठन् पठन् क्षम्य अत्र विहरन् विहरन्ति इति अस्ति किल, तद् शत्रुप्रत्ययः अस्ति. शत्रुप्रत्ययः
विहरन् मोदते शत्रुप्रत्ययः
अस्ति.
कार्यद्वयम् अस्ति.
सत्यं सत्यं विहरन् मोदते समीचीनं. कार्यद्वयम् अस्ति. विहरति इति एकं क्रियापदम् अस्ति, मोदते अपि एकं क्रियापदम् अस्ति, परन्तु कार्यद्वयं समानकाल एकस्मिन् समये एव भविष्यति. अतः रूपपरिवर्तनम् अत्र अस्ति. विहरति मोदते इति लट्लकारूपं न लिखितम् अस्ति, विहरन्ति मोदते इति लिखितम् अस्ति. कथं भविष्यति? उदाहरणार्थं बालकः खादन् गच्छति. बालकः खादन् गच्छति इति अर्थः कः? सः खादति
गच्छति अपि गच्छति
खादति अपि गच्छति अपि समानकाले कार्यद्वयं भविष्यति किल. तादृशं द्रौपदी अपि किं करोति, द्रौपदी अपि विहरन्ति मोदते. अस्तु, अत्र कथं भवती जानाति विहरति इति अस्ति चेत् भवती क्रियापदम् इति जानाति, परन्तु विहरन्ति इति अस्ति. अत्र रूपं कथम् अस्ति अत्र? अत्र अत्र भ्रमः मास्तु भगिनि, अहं सूचयिष्यामि. अत्र शत्रुप्रत्ययः अस्ति किल, शत्रुप्रत्ययस्य पठति इति शब्दः लट्लकाररूपम् अस्ति, तस्य शत्रुप्रत्ययः कथं भवति भवती वदतु. केवलं फुल् पठन्
पठन्
पठन्तौ
पठन्तः
न भगिनि, तद् पठन् शब्दस्य विभक्तिः भवती वदति, परन्तु त्रिषु लिङ्गेषु रूपाणि कथं भवति इति अहं पृच्छामि.
त्रिषु लिङ्गेषु
पुल्लिङ्गे पुल्लिङ्गे पठन् इति अस्ति, स्त्रीलिङ्गे पठन्ति इति अस्ति,
पठति पठतम्
पठन् पठन्ति पठतः इति भविष्यति. सारि क्षम्यतां, नपुंसकलिङ्गं त्यजतु. इदानीं पठन् पठन् पठन्ति इति स्वीकरोतु. अस्तु, पुल्लिङ्गं स्त्रीलिङ्गं पठन् पठन्ति
पठन्ति
तादृशं
विहरन् विहरन्ति
तादृशं. किमर्थं स्त्रीलिङ्गरूपम् अत्र अस्ति विहरन्ति इति?
द्रौपदी अस्ति
चेत् द्रौपदी ईकार स्त्रीलिङ्गरूपं स्त्रीलिङ्गमस्ति, स्त्रीलिङ्ग द्रौपदी स्त्रीलिङ्गरूपम् अस्ति, अतः विहरन्ति अपि स्त्रीलिङ्गं भविष्यति. आम् आम्. अतः किमर्थम् अत्र शत्रु इत्युक्ते कार्यद्वयं समानकार्ये अस्ति, अतः शत्रुप्रत्यय उपयोगं कृतवन्तः, शत्रुप्रत्ययः उपयोगं कृतवन्तः. शत्रुप्रत्ययरूपं कुत्र कथं भविष्यति इत्युक्ते पठन् पठन्ति, क्रीडन् क्रीडन्ति, विहरन् विहरन्ति इति भविष्यति. अस्तु, अत्र एतस्मिन् वाक्ये द्रौपदी अपि विहरन्ती मोदते. अत्र आत्मनेपदी अपि अस्ति, अनन्तरं शत्रुप्रत्ययः अपि अस्ति.
आं भगिनि, आं भगिनि.
अत्र अहमेव पूर्वमेव उक्तवती के कानि कानि क्रियापदरूपाणि अत्र सन्ति, भवती पुनः एकवारं वदतु कृपया पद्मिनी भगिनी.
आत्मनेपदे अस्ति, आत्मनेपदरूपम् अस्ति, स प्रत्ययरूपाणि सन्ति, शत्रुप्रत्ययरूपाणि अपि सन्ति.
सत्यम्, आत्मनेपदी अस्ति चेत् तस्य विभक्तिः अस्ति वा लकारः अस्ति वा?
विभक्तिः अस्ति भगिनि.
भगिनि किञ्चित् सावधानेन चिन्तयतु. उदाहरणार्थं रमते इति क्रियापदमस्ति. रमते इति क्रियापदमस्ति, क्रियापदमस्ति चेत् लकारमस्ति वा विभक्तिरूपाणि सन्ति वा?
लकारम्
लकारमस्ति. किमर्थं चेत् ते रमते इति पदं क्रियापदम् अस्ति, इट्स् अ वर्ब्, सो इट् केन् ओन्ली हेव् अ लकारः, लकारम्. अस्तु
अस्तु,
अनन्तरं इदानीं क्ताप्रत्ययः इति स्वीकुर्मः. क्ताप्रत्ययः स्वीकुर्मः चेत् रूपाणि कथं भवति? नामपदमिव नामपदमेव चिन्तयित्वा विभक्तिरूपाणि सन्ति. किञ्चित् भ्रमः भवति वा भगिनि?
आं भगिनि.
अस्तु, अहं पृच्छामि, भवती वदतु. पठति पठति इति क्रियापदमस्ति.
आं भगिनि.
डु यु हेव् वर्ब्स्, इस् इट् अ वर्ब् आर् अ नौन्?
क्रियापदम्.
अस्तु, क्रियापदमस्ति चेत् लकारः अस्ति वा विभक्तिः अस्ति वा?
लकारः.
समीचीनम्. अनन्तरं पठति इति शब्दः अस्ति, तस्य शत्रुप्रत्ययरूपं कथं भवति त्रिषु
लिङ्गेषु?
पठन् पठन्ति
पठन्ति
तादृशम् अस्ति किल. तादृशं त्रिषु लिङ्गेषु अस्ति चेत् इस् इट् अ नौन् आर् अ वर्ब्?
पठन् भवति चेत्
पठन् पठन्ति पठत् इति अस्ति.
नौन् इट् बिकम्स् अ नौन्.
इट् इस् अ नौन्. यस्. इफ् इट् इस् अ नौन् देन् इट् ओन्लि केन् हेव् अ विभक्ति.
आम् भगिनि.
अस्तु. पठन् पठन्ति पठत् इति त्रिषु लिङ्गेषु अस्ति. इफ् इत् शत्रुप्रत्ययः. अस्तु. अनन्तरं क्त प्रत्ययः. इफ् इत् प्रत्ययः वाट् आर् द रूपास्? वाट् आर् दि फार्म्स्?
पठितः पठिता पठिता
पठितं. सत्यं. पठितः पठिता पठितं. त्रिषु लिङ्गेषु रूपाणि सन्ति. देन् वाट् 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 इस् इट्?
इट् इस् नामपदम्.
Yeah, if it's a noun, then what it can noun. Have? Will it have a lakaraha or will it have a vibhakti?
Vibhakti.
Satyam. Tavadeva.
Ambadi.
If you take any pratyaya or if you take any word, you just have to understand whether if it's a noun or a verb. If it's a verb, then it can only have a lakara. If it's a noun form, if it's a pratyaya and if it has a noun form, then it can only have vibhakti. That's all.
Vibhakti.
So whether it's a parasmaipadi, or Atmanepadi, it is still a verb only.
Okay.
Right? Whether it's Atmanepadi, Prasmanepadi, it's still a, it is still a verb only.
Verb and it has only lakara.
Satyam, satyam, satyam. And since ta pratyaha and shartru pratyaha takes its form from the verb, but it changes into a noun, right?
Noun.
Yeah,
then so it can have
only vibhakti. Have only vibhakti. It can only have vibhakti. Yes. Mm-hmm. Because the forms are available in all the three genders.
Okay.
It's available with shatru pratyaha or ta pratyaha. The forms are available in all the three genders. Patitaha, patita, patitam. Atva, patan, patanti, patat. Iti, trishu lingeshu rupani santi. अतः विभक्तिरूपाणि सन्ति.
आं भगिनि.
ते नामपदमिव परिवर्तनं भविष्यति. सत्यं तावदेव. यस्. इट् टेक्स् इट्स् रूट् फ्रम् दि नौन् सो इट् हेस् इट्स् विभक्ति फार्म्.
विभक्ति.
रैट्.
आं भगिनि. स्पष्टमस्ति भगिनि.
अस्तु. अग्रिमसप्ताहे वयं किं कुर्मः चेत् एतस्मिन् विषयस्य एव किञ्चित् स्मृत्वा विषयमेव किञ्चित् स्मृत्वा आरम्भं कुर्मः.
आं भगिनि.
आत्मनेपदी इत्युक्ते किं, शत्रुप्रत्ययः इत्युक्ते किं, क प्रत्ययः इत्युक्ते किम् इति किञ्चित् ज्ञास्यामः. अनन्तरम् अग्रे गच्छामः. किमर्थं चेत् एतस्मिन् कथायां सर्वं तानि रूपाणि एव सन्ति. अतः भ्रमः अस्ति चेत् वयं सम्यक् न
जानीमः.
अनन्तरं सम्यक् अभिरुचिः अपि सम्यक् न भविष्यति. यु विल् नाट् एन्जाय् द स्टोरि नार् दि व्याकरणं. बोत् आर् यु ब्यूटिफुल्. एन्जाय् वन् व्याकरणम् इस् आल्सो सिम् यु नो इट् इस् हार्ड् अण्टिल् यु अण्डर्स्टाण्ड्. वन्स् यु अण्डर्स्टाण्ड् इट्स्
सिम्पल्.
सो वि नीड् टु मच् मेनि रेपिटेशन्स्. वि विल् डू रेपिटेशन्स् अण्ड् वि विल् एन्जाय् द स्टोरि अण्ड् द व्याकरणं.
थेङ्क् यु भगिनि.
चिन्ता मास्तु. अन्यप्रश्नाः सन्ति वा? अन्येषां कृते अहं पृच्छामि अथवा भगिनी भगिनी अपि अन्यप्रश्नः अस्ति चेत् पृच्छतु. अन्येषां कृते अपि पृच्छामि. अस्तु. शोभना भगिनी, भवत्याः कृते अहं पृच्छामि. स्पष्टमस्ति वा भगिनी?
स्पष्टमस्ति भगिनि.
अस्तु. समीचीनं समीचीनं. वंशिका भगिनी, अस्ति वा? अस्तु. अग्रिमवासरे अहं पृच्छामि के रूपाणि क्रियापदरूपाणि अत्र सन्ति इति. वयं स्मृत्वा अग्रे गच्छामः. अस्तु. अग्रिमसप्ताहे.
अस्तु.
अस्तु. समीचीनं. धन्यवादः.
धन्यवादः.
धन्यवादः. नमस्कारः. अग्रिमसप्ताहे
मिलामः.
कथं स्पष्टमस्ति वा भगिनि?
आं भगिनि.
किञ्चित् भ्रमः अस्ति वा?
नास्ति भगिनि, भ्रमः नास्ति भगिनि.
थिङ्क् अबौट् इट् अण्ड् आस्क् इफ् एनी क्वेश्चन् इन् द नेक्स्ट्
वीक्. शुर्, प्लीस् प्लीस् प्लीस्, वी नीड् मोर् क्लारिटि. ओन्लि इफ् यु थिङ्क् वी केन् अण्डर्स्टाण्ड्. सो प्लीस् थिङ्क्, ट्रै टु अण्डर्स्टाण्ड् अण्ड् आस्क् क्वश्चन्स् सो देट् बिकास् आफ़् युर् क्वश्चन् एव्री अदर् पर्सन् विल् बि बेनिफिट् फ्रम् इट्.
ओके
चिन्ता मास्तु चिन्ता मास्तु धन्यवादः धन्यवादः
धन्यवादः
धन्यवादः अग्रिमवासरे मिलामः
धन्यवादः
धन्यवादः महोदय प्रश्नः अस्ति वा महोदय
नास्ति भगिनि नास्ति
समीचीनम् महोदय भवान्